अथ षष्ठोऽध्यायः आत्मसंयमयोगः। श्रीभगवानुवाच, अनाश्रितः कर्मफलं कार्यं कर्म करोति यः, ससन्न्यासी च योगी च, न निरग्निर्न चाक्रियः। अनाश्रितः कर्मफलं कार्यं कर्म करोति यः, ससन्न्यासी च योगी च, न निरग्निर्न चाक्रियः। यं सन्न्यासमिति प्राहुः योगं तं विद्धि पाण्डव, न ह्यसन्न्यस्तसङ्कल्पो योगी भवति कश्चन। आरुरुक्षोर्मुनेर्योगं कर्मकारणमुच्यते, योगारूढस्य तस्यैव शमः कारणमुच्यते। यदा हि चेन्द्रियार्थेषु न कर्मस्वनुषज्यते, सर्वसङ्कल्पसन्न्यासी योगारूढस्तदोच्यते। उद्धरेदात्मनात्मानं नात्मानमवसादयेत्, आत्मैव ह्यात्मनो बन्धुः, आत्मैव रिपुरात्मनः। बन्धुरात्मात्मनस्तस्य येनात्मैवात्मना जितः, अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत्। जितात्मनः प्रशान्तस्य परमात्मा समाहितः, शीतोष्णसुखदुःखेषु तथा मानावमानयोः, ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः, युक्त इत्युच्यते योगी समलोष्टास्मि काञ्चनः। सुहृन्मित्रार्युदासीन मध्यस्थ द्वेष्य बन्धुषु, साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते। योगी युञ्जीत सततम् आत्मानं रहसि स्थितः, एकाकीयत चित्तात्मा निरासीरपरिग्रहः। शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः, नात्युच्छ्रितं नातिनीचं चेलाजिनकुशोत्तरं, तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः, उपविश्यासने युञ्ज्यात् योगमात्मविशुद्धये। समं कायशिरोग्रीवं धारयन्नचलं स्थिरः, सम्प्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन्, प्रशान्तात्मा विगतभीः ब्रह्मचारिव्रते स्थितः, मनः संयम्यमच्चित्तो युक्त आसीत मत्परः। युञ्जन्नेवं तदात्मानं योगी नियतमानसः, शान्तिं निर्वाणपरमां मत्संस्थामधिगच्छति। नात्यश्नतस्तु योगोऽस्ति चैकान्तमनस्नतः, न चातिस्वप्रसीदस्य जाग्रतो नैव चार्जुन। युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु युक्तस्वप्